इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् स्वच्छतायाः प्रतिबद्धता सम्पूर्ण जीवनस्य प्रतिज्ञा वर्तते। तेन जनाः समाहूताः यत् स्वच्छतां जीवनस्य अंगत्वेन स्वीकुर्युः। स्वच्छ भारताभियानस्य दशवर्षपूर्त्यवसरे ह्यः राजधान्यां नवदिल्ल्याम् एषमः स्वच्छता एव सेवा कार्यक्रमं सम्बोधयन् प्रधानमन्त्रिणा स्वच्छतां जनान्दोलनं विधातुं चत्वारिंशदुत्तरैकशत कोटि भारतीयानां भावना श्लाघिता। प्रधानमन्त्री अवोचत् यत् पञ्चदश दिनेषु स्वच्छता पखवाड़ा इत्यस्य अन्तर्गतं देशे सप्तविंशति लक्षाधिकाः कार्यक्रमाः आयोजिताः। एतेषु कार्यक्रमेषु अष्टाविंशति कोट्यधिकाः जनाः प्रतिभागं कृतवन्तः। श्रीमोदी अवोचत् यत् अयं दिवसः अस्मान् महात्मगान्धिनः देशस्य अन्य पुरुषाणां च स्वप्नकल्पित भारतं वास्तविकरूपेण परिवर्तितुं प्रेरयति। स्वच्छ भारताभियानस्य सफलतायां समेषां देशवासिनां स्वच्छताकर्मिणां धार्मिक नेतृणां क्रीडकाणां प्रसिद्धजनानां प्रशासनेतर संघटनानां वार्ताभिकरणानां च योगदानं प्रधानमन्त्रिणा प्रशंसितम्। प्रधानमन्त्रिणा ह्यः दशसहस्रकोटि रूप्यकाणां स्वच्छता परियोजनानाम् अपि चर्चा कृता। विश्व स्वास्थ्य संघटनस्य महानिदेशकेन टेड्रोस एडनॉम घेब्रेयेससेन ह्यः प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रशंसा कृता। अपि च स्वच्छ भारताभियानस्य माध्यमेन सतत विकास लक्ष्य प्राप्तये च सर्वकारस्य महत्वपूर्ण प्रगतिः प्रशंसिता। अनेन स्वच्छ भारताभियाने स्वच्छ स्वस्थ राष्ट्रं समेधितुं समुदायाः समाहूताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः झारखण्डस्य हजारीबारक क्षेत्रे त्रिशतोत्तर त्र्यशीति सहस्र कोटि रूप्यकाणां विविध परियोजनानां आधारशिलाम् अस्थापयत् लोकार्पणं च कृतवान्। एतासु परियोजनासु धरती आबा जनजातीय ग्राम उत्कर्ष अभियानं प्रमुखम् अस्ति। एतद्धि सार्धैकशतोत्तर नवसप्तति सहस्र रूप्यकाणां कोटि रूप्यकाणां वर्तते। एतासु परियोजनासु प्रधानमन्त्री जनजातीयादिवासी न्याय महाभियानस्य अन्तर्गतं निहितानि कार्याणि सम्मेलितानि सन्ति। प्रधानमन्त्रिणा चत्वारिंशत् एकलव्य विद्यालयानाम् अपि लोकार्पणं कृतम्। तेन पञ्चविंशति संख्याकानाम् एकलव्य विद्यालयानाम् आधारशिला अपि स्थापिता। अत्रावसरे हजारीबागे विनोबा भावे विश्वविद्यालयस्य परिसरे जनान् सम्बोधयन् श्रीमोदी अवोचत् यत् नैकाः परियोजनाः आदिवासी समुदायं शक्तं विधातुं राज्ये ग्रामीणाधारभूत संरचनां समेधितुं च महत्वपूर्ण रूपेण सहायकाः भविष्यन्ति। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य प्रभृति राजस्थानस्य द्विदिवसीयायां यात्रायां भविष्यति। तत्र सा विभिन्नेषु कार्यक्रमेषु सहभागं करिष्यति। सर्वादौ सा उदयपुरे मोहनलाल सुखाडिया विश्वविद्यालयस्य द्वात्रिंशत्तमे दीक्षान्त समारोहे उपस्थास्यति। हरियाणा राज्ये अद्य सायं विधानसभा निर्वाचनार्थं प्रचाराभियानं सम्पन्नतां यास्यति। अद्य प्रभृति नवदिनात्मकं नवरात्र पर्व सोल्लासं सश्रद्धं च प्रारभते। अशेष देशे एतदुपलक्ष्य अनेके कार्यक्रमाः आयोज्यन्ते। बिहारे जलाप्लावेन सहरसा मधेपुरा पूर्णिया मुजफ्फरपुर समस्तीपुर कटिहार प्रभृति क्षेत्रेषु स्थितिः गंभीरा वर्तते। राज्ये गण्डक कोसी नद्यो आपच्चिह्नादुपरि प्रवहतः। तत्रैव बागमती कमलाबलान महानन्दाः च पूर्णवेगेन प्रवहन्ति। अस्माकं वार्ताहरेण सूचितं यत् जलाप्लावकारणेन इदानीं यावत् षोडश जनपदेषु द्वादश लक्षाधिकाः जनाः प्रभाविताः सन्ति। महिलानां विंशतिं प्रतिविंशति विश्व चषक क्रिकेट स्पर्धायाः नवम संस्करणं यूएई देशस्य शारजाह नगरे अद्य आरभते। भारतम् अस्य मासस्य चतुर्थे दिनांके प्रथमस्पर्धायां न्यूजीलैण्डं सम्मुखीकरिष्यति। अक्टूबर मासस्य तृतीये दिनांकात् विंशति दिनांक पर्यन्तम् अस्यां स्पर्धायां प्रायः दश दलानि भागं भजिष्यन्ति।